ओम नमो भगवते वासुदेवाय। अथ पञ्चविंशोऽध्यायः। मैत्रेय उवाच। इति सन्दिश्य भगवान् वारिषदैरभिपूजितः पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः। रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः जपन्तस्ते तपस्ते पूर्वर्षाणामयुतं जले। प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत् श्रेयस्त्वं कतमद्राजन् कर्मणात्मन ईहसे दुःखहानि सुखावाप्ति श्रेयस्तन्नेह चेष्यते। राजोवाच न जानामि महाभाग परं कर्मापविद्धधीः ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु। नारद उवाच भो भो प्रजापते राजन् पशून् पश्य त्वयाध्वरे संज्ञापितान् जीवसङ्घान् निर्घृणेन सहस्रशः एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव सम्परेतमयः कूटैश्छिन्दन्त्युत्थितमन्यवः। अत्र ते कथयिष्येमोमितिहासं पुरातनं पुरञ्जनस्य चरितं निबोध गदतो मम। आसीत् पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः तस्या विज्ञातनामासीत् सखा विज्ञातचेष्टितः सोऽन्वेषमाण शरणं बभ्राम पृथिवीं प्रभुः नानुरूपं यदा विन्ददभूत् स विमना इव न साधु मे नेता सर्वा भूतले यावती पुरः कामान् कामयमानोऽसौ तस्य तस्योपपत्तये स एकदा हिमवतो दक्षिणेष्वतसानुषु तदर्शनवभिर्द्वारभिः पुरं लक्षितलक्षणां प्राकारोपवनाट्टालपरिखैरक्षतोरणैः स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः नीलस्फटिकवैदुर्यमुक्तामरकतारुणैः क्लृप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव सभाचत्वररथ्याभिराक्रीडायतनापणैः चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले नदद्विहङ्गालिकुलकोलाहलजलाशये हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना चलत्प्रवालविटपनलिनीतटसम्पदि नानारण्यमृगव्रातैरनाबाधे मुनिव्रतैः आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः यदृच्छया गतां तत्र ददर्श प्रमदोत्तमां वृत्यैर्दशभिरायान्ति मेकैकशतनायकैः पञ्चशीर्षाहिना गुप्तां प्रतिहारेण सर्वतः अन्वेषमाणां वृषभमप्रौढां कामरूपिणीं सुनासां सुदतीं बालां सुकपोलां वराननां समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियं पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलां पद्भ्यां कुणद्भ्यां चलतीं नूपुरैर्देवतामिव स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीं तामाह ललितं वीर सव्रीडस्मितशोभनां स्निग्धेनापाङ्गपुङ्खेन स्पृष्ट प्रेमोद्भ्रमद्भ्रुवा का त्वं कञ्जपलासाक्षी कस्यासीह कुतस्सति इमामुपपुरीं भीरु किञ्चिकीर्षसि संसमे क एतेनुपथायेत एकादश महाभटाः एता वालुना सुभ्रु कोऽयं तेहि पुरःसरः त्वं रीर्भवान्यस्यथ वाग्रमापतिं विजिन्वती किं मुनिवद्रहो वने त्वदङ्घ्रिकामाप्तसमस्तकामं क्व पद्मकोशः पतितः कराग्रात् नासां वरोर्वन्यतमा भुवि स्पृक् पुरीमिमां वीरवरेण साकम् अर्हस्य लङ्कर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा यदेशमापाङ्गविखण्डितेन्द्रियं सव्रीडभावस्मितविभ्रमद्भ्रुवा त्वयोपसृष्टो भगवान् मनोभवः प्रबाधतेऽथानुगृहाण शोभने त्वदाननं शुभ्रुसुतारलोचनं व्यालम्बिनी लालकवृन्दसंवृतम् उन्नीयमे दर्शय वल्गुवाचकं यद्व्रीडयानाभिमुखं शुचिस्मिते। नारद उवाच इत्थं पुरञ्जनं नारी याचमानमधीरवत् अभ्यनन्दत तं वीरं हसन्ति वीरमोहिता न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ आत्मनस्य परस्यापि गोत्रं नाम च यत्कृतम् इहाद्य सन्तमात्मानं विदाम न ततः परं येनेयं निर्मिता वीरपुरी शरणमात्मनः एते सखाय सख्यो मे नरा नार्यश्च मानद सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीं दिष्ट्यागतोऽसि भद्रं ते ग्राम्यान् कामानभीप्सते उद्वहिष्यामि तान् स्तेऽहं स्वबन्धुभिररिन्दम इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो मयोपनीतान् गृह्णानः कामभोगान् शतं समाः कं नु त्वदन्यं रमये यर्तिज्ञमकोविदम् असम्परायाभिमुखमश्वस्तनविदं पशुं धर्मो यत्रार्थकामौ च प्रजानन्दो मृतं यशः लोकाविशोका विरजायान्न केवलिनो विदुः पितृदेवर्षिमर्त्यानां भूतानामात्मनश्चः क्षेम्यं वदन्ति शरणं भवेस्मिन् यद्गृहाश्रमः कानामवीरविख्यातं वदान्यं प्रियदर्शनं न वृणीतप्रियं प्राप्तं मादृशीत्वादृशं पतिं कस्या मनस्ते भुवि भोगि भोगयोः स्त्रिया न सब्जेद्भुजयोर्महाभुज यो नाथवर्गाधिमलं गृणोद्धत स्मितावलोके न चरत्यपोहितुं नारद उवाच इति तौ दम्पती तत्र समुद्य समयं मिथः तां प्रविश्य पुरीं राजन्मुदा ते शतं समाः उपगीयमानो ललितं तत्र तत्र च गायकैः क्रीडन् परिवृतस्त्रीभिर्हृदिनीमाविषच्छुचौ सप्तो परिकृताद्वारः पुरस्तस्यास्तु द्वे अधः पृथग्विषयगत्यर्थं तस्यां यः कश्चनेश्वरः पञ्चद्वारस्तु पौरस्या दक्षिणैका तथोत्तरा पश्चिमे द्वे अमूषान्ते नामानि नृपवर्णये खद्योताविर्मुखी च प्राग्द्वारा वेकत्र निर्मिते विभ्राजितं जनपदं यासिताभ्यां द्युमत्सखः नरिणी नालिनी च प्राग्द्वारा वेकत्र निर्मिते अवधूतसखस्ताभ्यां विषयं याति सौरभम् मुख्यानाम पुरस्ताद्वास्तयापण बहूदनौ विषयौ याति पुरराट् रसज्ञविपणान्वितः पितृहोर्नृपुर्याद्वार्दक्षिणेन पुरञ्जनः राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः देवहोर्नामपुर्याद्वा उत्तरेण पुरञ्जनः राष्ट्रमुत्तरपञ्चालं याति श्रुतधरान्वितः आसुरी नाम पश्चाद्वास्तया याति पुरञ्जनः ग्रामकं नाम विषयं दुर्मदेन समन्वितः निर्ऋतिर्नाम पश्चाद्वास्तया याति पुरञ्जनः वैशतं नाम विषयं दुग्धकेन समन्वितः अन्धावमीषां पौराणां निर्वाक्पेशस्कृताबुभौ अक्षण्वतामधिपतिस्ताभ्यां याति करोति च सह्यर्यन्तः पुरगतो विशोचेन समन्वितः मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् एवं कर्मसु संसक्तः कामात्मा वञ्चितो बुधः महिषी यद्यदीहेत तत्तदेवान्ववर्तत क्वचित् पिबन्त्यां पिबति मदिरां मदविह्वलः अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति क्वचिद् गायति गायन्त्यां रुदत्यां रुदति क्वचित् क्वचिद्धसन्त्यां हसति जल्पन्त्यामनुजल्पति क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनुतिष्ठति अनुशेते शयानायामन्वास्ते क्वचिदासति क्वचिच्छृणोति शृण्वन्त्यां पश्यन्त्यामनुपश्यति क्वचिज्जिग्रति जिग्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् क्वचिच्च शोचतीं जायामनुशोचति दीनवत् अनुरिष्यति ऋष्यन्त्यामुदितामनुमोदते विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः नेच्छन्ननुकरोत्यज्ञः क्लैब्यात् क्रीडा मृगो यथा ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने पञ्चविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।